इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य आश्वासितवान् यत् तस्य प्रशासनं महिला आरक्षणस्य पथि आगच्छन्तं प्रत्येकां बाधाम् उन्मूलयिष्यति। ह्यः रात्रौ राष्ट्रं सम्बोधयन् प्रधानमन्त्री न्यगदयत् यत् यानि दलानि महिला आरक्षणस्य विरोधं कुर्वन्ति तानि संसदि राज्यविधानसभासु च महिलानां सहभागितां नैव अपाकर्तुं प्रभवन्ति। सः अवोचत् यत् महिलानां सशक्तीकरणदिशि भारतीय जनता दलस्य राष्ट्रिय जनतांत्रिक गठबन्धनस्य च संकल्पः अक्षुण्णं वर्तते। सः दुःखं प्रकटितवान् यत् यदा महिलानां कृते एषः विधेयकः पराजितो जातः तदा कांग्रेस डीएमके सपा तृणमूल सदृशानि दलानि हर्षं प्रकटितवन्तः। एतत् अत्यन्तं हृदय विदारकं वर्तते।
साथियों, हमारे लिए देश हित सर्वोपरि है, लेकिन जब कुछ लोगों के लिए दल हित सब कुछ हो जाता है, दल हित देश हित से बड़ा हो जाता है, तो नारी शक्ति को, देश हित को इसका खामियाजा उठाना पड़ता है। इस बार भी यही हुआ है। कांग्रेस, डीएमके, टीएमसी और समाजवादी पार्टी जैसे दलों की स्वार्थी राजनीति का नुकसान देश की नारी शक्ति को उठाना पड़ा है।
प्रशासनेन उत्तर प्रदेशे आलुकस्य, आंध्र प्रदेशे चणकस्य क्रयण प्रक्रियायै अनुमति प्रदत्ता। अपि च कर्नाटक राज्ये द्विदलस्य क्रयण समय सीमा वर्धिता वर्तते। केन्द्रीय कृषि एवं कृषक कल्याण मंत्री शिवराज सिंह चौहानेन अंगीकृतं यत् इयं क्रयण प्रक्रिया सुनिश्चितं करोति यत् कृषकाः तेषां कठोर परिश्रमेण उत्पादितानां सस्यानां कृते उचितं लाभप्रदं च मूल्यं प्राप्नुयुः। उत्तराखण्ड राज्ये अद्य उत्तरकाशी मण्डले गंगोत्री यमुनोत्री मन्दिरयोः द्वार उद्घाटनेन सह चतुर्धाम यात्रा विधिवत् आरभ्यते। मुख्यमंत्री पुष्कर सिंह धामी ह्यः ऋषिकेशतः यात्रायाः कृते बस यानानां हरित संकेतेन प्रस्थानं कारितवान्। अस्मिन् अवसरे सः अवोचत् यत् सुगमा, सुरक्षिता, सुव्यवस्थिता च तीर्थयात्रा सर्वकारस्य प्रथमा प्राथमिकता वर्तते। मुख्यमंत्री सर्वान् भक्तान् अपि न्यवेदयत् यत् ते धार्मिक स्थलेषु, यात्रा मार्गेषु च स्वच्छतां निर्वहन्तु। तमिलनाडु राज्ये अप्रैल मासस्य 21 दिनांके निर्वाचन प्रसारस्य समाप्तेः पूर्वं राजनैतिक वाक् प्रहारः, शाब्दिक द्वन्द्वः च चरमोत्कर्षे प्राप्तवन्तः। सर्वेषां दलानां शीर्षनेतारः अन्तिम प्रचाराय राज्यस्य भ्रमणं कुर्वन्तः सन्ति। अद्य केन्द्रीय गृहसचिवः, भाजपेति दलस्य नेता च अमितशाहः एनडीए गठबन्धनस्य समर्थनार्थं ईरोड मण्डलस्य शिवगिरी क्षेत्रे प्रचारं करिष्यति। ततः प्राक् प्रधानमन्त्री नरेन्द्र मोदी अपि गठबन्धनस्य विजय सम्भावनाः वर्धयितुं राज्ये प्रवासं विहितवान्। विपक्षीय दलानां पक्षतः कांग्रेस नेता राहुल गांधी उत्तर मण्डलेषु प्रचारं कृतवान्। राष्ट्रिय जनता दलस्य नेता तेजस्वी यादवः अपि प्रचार यात्रायां सम्मिलितः भूत्वा कोयम्बतूर, तिरुप्पूर, नीलगिरी क्षेत्रेषु धर्मनिरपेक्ष प्रगतिशील गठबन्धनस्य पक्षे प्रचारं कृतवान्। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः अद्य मध्याह्ने 12:30 भविष्यति। क्रिकेट क्रीडायां हैदराबाद नगरस्य राजीव गांधी अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे सनराइजर्स हैदराबाद दलेन चेन्नई सुपर किंग्स दलं 10 धावनांकैः पराजितम् इति वार्ताः।